एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः निगदति सर्वकारः सुशासनम् सामाजिक न्यायम् समृद्धिम् च मुख्य केन्द्रे निधाय राज्यस्य सम्पूर्ण शक्ति सामर्थ्ययोः देश जनतयोर्हिताय अधिकतम परिचालनत्वेन कार्याणि विदधानो वर्तते। प्रतिनिधि सभायाः गतदिवसीयो उपवेशे प्रधानमन्त्रिणा सह प्रश्नोत्तर कार्यक्रमे प्रधानमन्त्री प्रचण्डः भाषत संघीय लोकतान्त्रिक शासन व्यवस्थायाः सुदृढीकरणम् अर्थतन्त्रस्य पुनरुत्थानम् सबलीकरणम् सार्वजनिक सेवासु जनताया सजाविगम भ्रष्टाचारस्य नियन्त्रणम् सुशासनस्य प्रवर्धनम् च सर्वकारस्य मुख्य कार्यभारो वर्तते। सांसदानाम् प्रश्नान् समाधान प्रधानमन्त्री प्रचण्डः सर्वकारेण सञ्चालितैः कार्यैः अर्थतन्त्रम् शनैः सहजावस्थाम् प्राप्तमिति राष्ट्रकोषस्य सूचकांकैः अपि सन्दर्शितमिति प्रमाणयन् अकथयत्। एतद् वैक्रमाब्दस्य आषाढ मासान्तम् यावत् अशीत्यधिक द्विशतम् अब्जानि द्वापञ्चाशत् कोटयश्च रूप्यकाणि सञ्चितौ वर्तन्ते। प्रधानमन्त्री प्रचण्डः निकट भविष्यति सम्पत्स्यमाने चीनदेशस्य भ्रमणे देशद्वयस्य मध्ये विद्यमानस्य सम्बन्धस्य अतिरिक्तमुच्चैः प्रापणम् इतःपूर्वम् सम्पन्नानाम् संविधानाम् क्रियान्वयनाय बलप्रदानम् सीमा प्रवेश बिन्दूनाम् प्रभावकारित्वोद्भावनम् मार्गोर्जो व्यापार क्षेत्रेषु चीनदेशस्य सहयोगवर्धनम् च सहयोगवर्धनम् च प्राथमिकतायाम् सन्तीति उदतरत्। राष्ट्रिय गौरवस्य आयोजनानाम् प्रगतिर्विषये पृष्टम् प्रश्नम् उत्तरयन् प्रधानमन्त्री प्रचण्ड राष्ट्रिय गौरवस्य आयोजनानाम् यथासमयम् पूरणाय पर्याप्त वित्तस्य विनियोजनम् सुनिश्चितम् नियमितानुगमन कार्यम् च विधीयमानम् अस्तीति प्रावोचत्। विधिना प्रत्येकम् व्यक्ते अन्येषाम् धर्म संस्कृत्योः आघात निवारणत्वेन स्वस्व धर्म संस्कृत्योः पालनात्मकोऽधिकारः प्रदत्तोऽस्तीति ब्रुवन् सांसदानाम् प्रश्नान् उत्तरयन् प्रधानमन्त्री प्रचण्ड परापूर्वकालतः विद्यमानायाम् सामाजिकैकतायाम् विचलनकारी कथंविदमपि कार्यम् निषेद्धुम् सर्वकारः दृढोऽस्तीति प्रत्यपादयत्। सांसदानाम् अपरम् प्रश्नम् उत्तरयन् प्रधानमन्त्री प्रचण्डः अतर्कयत् भूटान देशीय शरणार्थी प्रकरण प्रवृत्तिषु सर्वासु घटनासु राज्येन प्रभाव राहित्य रीत्या निष्पक्षानुसन्धानस्य अग्रे प्रवर्धनस्यैव हेतोः जनतायाम् सुशासनम् सम्भवम् अस्तीति नवीना आशा अंकुरिता वर्तते। प्रधानमन्त्रिणा प्रचण्डेन भ्रष्टाचार विरोधिन्या शून्य सहनशीलतायाः नीति राज्यस्य त्रिषु एव स्तरेषु कठोरेण क्रियान्वीयमानास्तीति ज्ञापितम्। कस्यापि संरक्षणस्य कस्यापि काठिन्यसर्जनस्य च दुरभिप्रायेण किमपि कार्यम् विहितम् नास्तीति भाषमाणः प्रधानमन्त्री प्रचण्ड अनुसन्धानस्य क्रमे यदि प्रधानमन्त्री मन्त्री आगच्छति तर्हि तस्यापि उन्मुक्तिः नावश्यकी मद्दलस्य तु वार्तैव का इति आत्मना सततम् उक्तमिति समस्पष्टयत्। प्रतिनिधि सभाया गतदिवसीयोपवेश गणपूरक संख्याया अपर्याप्तताया कारणेन स्थगितो भवत्। तत्पूर्वम् उपवेशस्य विशेष समये विभिन्नेषु विषयेषु सर्वकारस्य ध्यानाकर्षण क्रमे सांसदा देशस्य सर्वेषु भागेषु डेंगी रोगस्य प्रसरणस्य हेतोः रोगममम् नियन्तुम् भ्रष्टाचार मानव तस्करीयोः संलग्नान् जनान् दण्डनस्य सीमायाम् आनेतुम् च परामृशन्। सांसदा केनापि विभेदाय अतिवादाय च प्रश्रयो नदातव्य नेपाले सनातनकालत प्रचलिते धर्म संस्कृति संरक्षणीये राष्ट्रिय हिंसा विस्तार कार्यम् केनापि न कर्तव्यम् स्वास्थ्य क्षेत्रस्य सेवाम् प्रभावकारिणीम् विधातुम् कृतानि भेन्टिलेटर अल्ट्रासाउण्ड नामधेय सहितानि त्रयस्त्रिंशदुत्तरशतद्वयम् उपकरणानि प्रयोगविहीनानि जातानि ती च उक्त्वा सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः अपरोपवेशः अस्यैव भाद्रस्य अष्टादश दिवसे सोमवासरे दिवा एकवादने वस्ता। बहुप्रतीक्षितम् एतद् विक्रमवर्षीयम् विद्युत् विधेयकम् सर्वकारेण संघीय संसदि प्रस्तोतुम् निर्णीतमस्ति। मन्त्रिपरिषद ह्यस्तनोपवेशेन विधेयकमिदम् पारितीकृत्य संघीय संसदि प्रस्तोतुम् निर्णीतम् वर्तते। उपवेशेन संसदि अस्य विधेयकस्य प्रस्तुत्यै ऊर्जो मन्त्रालयाय अनुमतिः प्रदत्ता स्थिति ऊर्जो जलस्रोत सेचन मन्त्री शक्तिबहादुर बस्नेत अज्ञापयत्। एवमेव उपवेशेन एतद् विक्रमवर्षीयम् सीमा प्रवेश शुल्क विधेयकमपि संघीय संसदि प्रस्तुत कर्तुम निर्णीतम अस्ति इति संचार सूचना प्रविधि मन्त्री रेखा शर्मा अज्ञापयत। मन्त्रिपरिषद उपवेशन नैजीकरण समिते सदस्य पदे सांसद द्वयम् माधव सापकोटा राजेन्द्र कुमार केसी च मनोनीतौ स्तः। एवमेव उपवेशन सहसचिवस्य दिनेश कुमार घिमिरेविदस्य सचिव पदे पदोन्नतिः विहिता वर्तते। उपवेशन नेपाल औषध लिमिटेड संस्थानस्य महाप्रबन्धक पदे कैलाश कुमार पनेरु इत्यमुम् नियोक्तुम् निर्णीतम् इति मन्त्री शर्मा अबोधयत्। प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्ड सत्तायी देश जनतयोः अहितकारिणी कापि संविधान न क्रियते इति प्रतिबद्धतां व्यनक्ति। रूपन्देही जनपदस्य बुटवल स्थाने समाजवादी संयुतेः लुम्बिनी प्रदेशस्य सन्देश सभां ह्यः सम्बोधयन् प्रधानमन्त्री प्रचण्ड सर्वकारेण पश्चात्तन समये जनतया अनुभवनत्वेन कार्याणि विधीयमानानि सन्ति त्यतः आशा विश्वासश्च जागृतौ स्तः। प्रधानमन्त्री प्रचण्ड अवासत जनयुद्धस्य जनान्दोलनस्य च मुख्य शक्तयः समाजवादी संयुतौ वर्तन्ते इत्यतः संयुतेः भविष्यमस्ति। कार्यक्रमे नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल अगदत् अद्यतः नेपाले क्रियान्वीयमाना एमसीसी परियोजना नेपालस्य हित विपरीता अस्ति चेत् मान्या न भवति। सन्देश सभायां नेकपा दलस्य महासचिव नेत्र विक्रम चन्द विप्लव जसपा दलस्य कार्यकारी सदस्य राजकिशोर यादवश्चेति नेतृभिः समाजवादी संयुतेः उद्देश्यस्य विषये धारणाः व्यक्ताः आसन्। प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्ड निगदति माओवादी दलस्य रूपान्तरणं विधायैव देशस्य रूपान्तरणस्य आधारः निर्मातुं शक्यते। ह्यः राष्ट्रिय सभागृहे दलस्य उपत्यका विशेष प्रदेश समित्या आयोजितं प्रशिक्षण कार्यक्रमं सम्बोधयन् प्रधानमन्त्री प्रचण्ड अगदत् माओवादी दलस्य रूपान्तरणं अनिवार्य शपथो वर्तते। प्रधानमन्त्री प्रचण्ड कृत्रिम भूटान देशीय शरणार्थी प्रकरणस्य स्वर्ण तस्करी प्रकरणस्य च सञ्जाल त्रोटन कार्यम् अग्रे वर्धितमस्ति असूचयत। कार्यक्रमे प्रधानमन्त्री प्रचण्ड नेपालस्य हिताय अन्ताराष्ट्रिय समुदायस्य ध्यानाकर्षणं विहितमस्ति तस्य परिणामः क्रमशः द्रक्ष्यते इति च प्रावोचत्। संयुक्त राज्य अमेरिका देशस्य एमसीसी नाम्न्याः विकास सहयोग परियोजनायाः उपाध्यक्ष क्यामरून एल्फोर्ड ह्यो नेपाल भ्रमणाय समागतो वर्तते। नेपालेन सह सम्पन्नायाः एतस्याः परियोजनायाः प्रारम्भावसरम् आलक्ष्य परियोजनायाः संविदा कार्य सञ्चालन सम्बद्धः उपाध्यक्ष एल्फोर्ड नेपाल भ्रमणाय समागतोऽस्ति। नेपालस्य नेतृत्वदायी भूमिकावत्यः एतस्याः परियोजनायाः संविदायाः प्रगत्या अमेरिकादेशीय सर्वकारः उत्साहितो स्थिति काष्ठमण्डपस्थ अमेरिका देशीय दूतावासो ज्ञापयति। स्वामी विवेकानन्द सांस्कृतिक केन्द्र भारतीय राजदूतावासस्य वाल्मीकि विद्यापीठस्थानुसन्धान व्यवस्थापन समितेश्च संयुक्तायोजनायां ह्यः काष्ठमण्डपे संस्कृत दिवसः सम्पादितः। कार्यक्रमे नेपाल प्रज्ञा प्रतिष्ठानस्य कुलपतिः भूपाल राई संस्कृत वाङ्मय साहित्य संस्कृति भाषिक चिन्तन दर्शनानि सन्निहितानि सन्तीति चर्चयन् एतस्य वाङ्मयस्य अमरत्वं प्रत्यपादयत्। वाल्मीकि विद्यापीठस्य प्राध्यापकः डाक्टर काशीनाथ न्यौपाने भारतस्य चिन्मयान्तरराष्ट्रिय प्रतिष्ठानस्य प्राज्ञिक निर्देशक प्राध्यापक गौरी माउलिकर च महाकवे कालिदासस्य काव्यकौशलम् अवर्णयताम्। वाल्मीकि विद्यापीठस्य अनुसन्धान व्यवस्थापन समिते संयोजक प्राध्यापक डा शान्तिकृष्ण अधिकारी विद्यापीठस्य प्राचार्य डा प्राध्यापक भागवत ढकालस्य संस्कृत वाङ्मयस्य महाकवे कालिदासस्य काव्य वैशिष्ट्यस्य च विषये मन्तव्यम् उपस्थापयताम् इति समाचारः।